इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका निधि तिवारी। अथ वार्ताः। लोकसभा निर्वाचनस्य चतुर्थ चरणस्य प्रचाराभियानम् तीव्रताम् प्राप्नोति, यतो हि एकदिनमेव अवशिष्टम् वर्तते। अस्य चरणस्य मतदानम् मंगलवासरे भविष्यति। प्रधानमन्त्री भाजपेति दलस्य वरिष्ठः नेता नरेन्द्रमोदी नारायणपेट हैदराबाद नगरयोः तेलंगानायाः प्रचाराभियानम् विहितवान्। महबूबनगर लोकसभाक्षेत्रस्य नारायणपेटस्थले एकां नैर्वाचनिक जनसभां सम्बोधयन् असौ कथितवान् यत् वर्तमान निर्वाचनम् देशस्य भविष्याय वर्तते। असौ आक्षिप्तवान् यत् भारत राष्ट्र समितिः कांग्रेसदलं च भ्रष्टदलिस्तः, अपि च कांग्रेसदलं अल्पसंख्यकेभ्यः जनेभ्यः प्रदीयमानम् आरक्षणं धर्मस्य आधारे विभाजनस्य प्रयासं सम्पादयति। एतदनन्तरं श्रीमोदी ह्यः सायं भुवनेश्वरे एकं मार्गीय प्रदर्शनमपि सम्पादितवान्। असौ अद्य ओडिशायाः कन्धमाल बलांगीर बरगढ़ लोकसभासनेभ्यः तिस्रः जनसभाः सम्बोधयिष्यति। छत्तीसगढ़ राज्ये ह्यः बीजापुर जनपदे सुरक्षाबलैः सह घटिते एकस्मिन् संघर्षे द्वादश माओवादिनः व्यापादिताः। मृत माओवादिनां शरीराणि संघर्षस्थले अधिगृहीतानि। वरिष्ठारक्षि अधिकारिणा संसूचितम् यत् माओवादिभिः सह संघर्षोऽयं तदा घटितः यदा गंगालूरक्षेत्रस्य पीडिया ग्रामं निकषा वने संयुक्तदलमेकम् अन्वेषणकार्यं कुर्वदासीत्। अत्रावसरे बृहन्मात्रायाम् आयुधाः विस्फोटपदार्थाश्च गृहीताः। एतस्मिन् संघर्षे सुरक्षाकर्मिद्वयं व्रणितं जातम्। केषाञ्चिद् दिवसानाम् उष्णप्रकोपस्य अनन्तरं गतरात्रौ राष्ट्रिय राजधानी क्षेत्रे दिल्ल्यां च धूलिपूर्ण चण्डवातः प्रावहत्। 50 किलोमीटर मितस्य वायुवेगेन वृक्षशाखाः भग्नाः जाताः, येन यातायात मार्गः अवरुद्धो जातः। प्रतिकूल वातावरणेन विमानयानद्वयमपि जयपुरस्थानं प्रति प्रत्यावर्तितम्। एकस्मिन् प्रख्यापिते दिङ्निर्देशे ऋतुविभागेन कथितं यत् जनाः गृहे एव निवसेयुः, यात्रा उपेक्षा करणीया च। भारतं फ्रांसदेशे भविष्यमाणे 77वें कांस चलच्चित्र महोत्सवे भागं स्वीकरिष्यति। फ्रांसदेशे अयं महोत्सवः मासस्यास्य चतुर्दश दिनांकतः 25 दिनांक पर्यन्तं प्रचलिष्यति। भारत सर्वकारस्य भारतीय प्रतिनिधिमण्डलस्य राज्यसर्वकारस्य उद्योगस्य च सचिवाः सम्मिलिताः भविष्यन्ति, ये विश्वस्य चलच्चित्रापणे अस्मिन् भारतस्य रचनात्मक अर्थव्यवस्थां प्रदर्शयिष्यन्ति। सूचना प्रसारण मन्त्रालयः कथितवान् यत् भारतदेशः प्रथमवारं कांस चलचित्र महोत्सवे एतस्मिन् भारत पर्व इत्येतस्य अतिथित्वं भजिष्यति। आईपीएल इति क्रिकेट प्रतिस्पर्धायां ह्यः क्रीडितायां प्रतिस्पर्धायां अहमदाबाद नगरे गुजरात टाइटन्स दलेन चेन्नई सुपर किंग्स दलं 35 धावनांकैः पराजितम्। अध्यात्मके द्वन्द्वे कोलकाता नाइट राइडर्स मुंबई इंडियंस दलयोर्मध्ये कोलकाता नगरस्य ईडन गार्डन्स क्रीडांगणे आगामी प्रतिस्पर्धा भविष्यति इति वार्ताः।